ओम नमो भगवते वासुदेवाय। अथ सप्ताशीतितमोऽध्यायः। परीक्षितुवाच ब्रह्मन् ब्रह्मण्य निर्देश्ये निर्गुणे गुणवृत्तयः कथं चरन्ति श्रुतयः साक्षात् सदसतः परे। श्रीशुक उवाच बुद्धीन्द्रियमनः प्राणाञ्जनानाम् असृजत् प्रभुः मात्रार्थं च भवार्थं च आत्मने कल्पनाय च। सैषा युपनिषद्ब्राह्मी पूर्वेषां पूर्वजैर्धृता श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः। अत्र ते वर्णयिष्यामि गाथां नारायणान्वितां नारदस्य च संवादमृषेर्नारायणस्य च। एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम्। यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तयेन्द्रिणाम् धर्मज्ञानसमोपेतमाकल्पादास्थितस्तपः। तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः परीतं प्रणतो पृच्छदिदमेव कुरुद्वः। तस्मै यवोचत् भगवान् ऋषीणां शृण्वतामिदम् यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनां। श्रीभगवानुवाच स्वायम्भुवब्रह्मसत्रं जनलोके भवत्पुरा तत्रस्थानां मानसानां मुनीनाम् ऊर्ध्वरेतसाम्। श्वेतद्वीपं गतवती त्वयि द्रष्टुं तदीश्वरम्। ब्रह्मवादसु संवृत्तः श्रुतयो यत्र शेरते तत्र हायमभूत् प्रश्नस्त्वं मां यमनुपृच्छसि। तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः अपि चक्रुः प्रवचनमेकं शुश्रूषवोपरे। सनन्दन उवाच स्वसृष्टमिदमापीय शयानं सह शक्तिभिः तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम्। यथा शयानं सम्राजं वन्दिनश्चत्पराक्रमैः प्रत्यूषेभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः। श्रुतय ऊचुः जय जय जय्यजामजितदोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः। अगजगदोकसामखिलशक्त्यवबोधकते क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः। बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वा विकृतात्। अतरिषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम्। इति तव सूरयस्त्यधिपतेऽखिलोकमल क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः। किमुत पुनः स्वधाम विदुताशयकालगुणाः परम भजन्ति ये पदमजस्र सुखानुभवम्। धृतयैव श्वसन्त्य सुभृतो यदि तेऽनुविधा महदयमादयोऽण्डमसृजन् यदनुग्रहतः। पुरुषविधोऽन्वयोऽत्र चरमोन्नमयादिषु यः सदसतः परं त्वमथ यदेष्वशेषमृतम्। उदरमुपासते यऋषिवर्त्मसुकूर्पदृशः परिसरपद्धतिं हृदयमारुणयोदहरम्। तत उदगादनन्त तव धाम शिरः परमम् पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे। स्वकृतविचित्रयोनिषु विषन्निव हेतुतया तरतमतश्च कास्य न लभत् स्वकृतानुकृतिः। अथ वितथा स्वमूष्व वितथं तव धाम समम् विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम्। स्वकृतपुरेष्वमीष्व बहिरन्तरसंवरण तव पुरुषं वदन्त्यखिल शक्तिधृतोऽंशकृतम्। इति नृगतिं विविच्य कवयो निगमावपनम् भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः। दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्चरितमहामृताब्धिपरिवर्तपरिश्रमणाः। न परिलसन्ति केचिदपवर्गमपीश्वरते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः। त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत् चरसि तथोन्मुखे त्वयि हिते प्रिय आत्मनि च। नवतरमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः। निभृतमरुन् मनोक्षदृढयो गयुजो हृदियन् मुनय उपासते तदरयोऽपि ययुः स्मरणात् स्त्रियौ रगेन्द्र भोग भुजदण्ड विषक्त धियो वयमपि ते समा समदृशोऽङ्घ्रि सरोज सुधाः क इह नु वेद बतावर जन्मलयोऽग्रसरम् यत उदगात्रिषिर्यमनुदेवगणा उभये तर्हि न सन्न चासदुभयम् न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा जनिमसतः सतो मृतिमुतात्मनि ये च भिदाम् विपणमृतम् स्मरन्त्युपदिशन्ति तारुपितैः त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे सदिव मनस्त्रिवृत्त्वयि विभात्य सदा मनुजात् तदपि मृषन्त्यशेषमिदमात्मतयात्मविदः न हि विकृतिम् त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतया वसितम् तव परिये चरन्त्यखिल सत्त्वनिकेततया त उत पदाक्रमन्त्य विगणय्य शिरो निर्ृतेः परिवयसे पशूनिव गिरा विबुधा न पिताम् त्वयि कृतसौहृदा खलु पुनन्ति न ये विमुखाः त्वमकर्णः स्वरादखिलकारकशक्तिधरत् तव बलिमुद्वहन्ति समदन्त्य जया निमिषाः वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः स्थिरचरजातयः सुरजयोत्थ निमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः नहि परमस्य कश्चिदपरो न परश्च भवेत् वियत इवापदस्य तव शून्यतुलाम् दधतः अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतात् तर्हि न शास्यतेति नियमो ध्रुवनेतरथा अजनिचयन्मयम् तदविमुच्य नियन्त्रि भवेत् सममनुजानताम् यदमतम् मतदुष्टतया न घटत उद्भवः प्रकृतिपूरुषयोरजयो रुभययुजा भवन्त्य सुभृतो जलबुद्बुदवत् त्वयि त इमे ततो विविध नाम गुणैः परमे सरित इवार्णवे मधुनिलिल्युरशेषरसाः नृषु तव मायया भ्रममीष्वगत्य भृशम् त्वयि सुधियो भवे दधति भावमनुप्रभवम् कथमनुवर्तताम् भवभयम् तव यद्भ्रुकुटिः सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् विजितऋषीकवायुभिरदान्तमनस्तुरगम् य इह यतन्ति यन्तु मतिलोलमुपायखिदः व्यसनशतान्विता समवहाय गुरोश्चरणम् वणिज इवाजसञ्च कृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधरा सुरथैः त्वयि सति किन्द्रिणाम् श्रयत आत्मनि सर्वरसे इति सद जानताम् मिथुनतो रतये चरताम् सुखयति कोऽन्विह स्वविहते स्वनिरस्तभगे भुवि पुरु पुण्यतीर्थसदनान् ऋषयो विमदात् त उत भवत्पदाम्बुजहृदो गभिदङ्घ्रिजलाः दधति सकृन् मनस्त्वय्य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् सत इदमुत्थितम् सदिति चेन्ननु तर्कहतम् व्यभिचरति क्वच क्वच मृषा न तथोभययुक् व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती तौरुवृत्तिभिरुक्थ जडान् न यदिदमग्र आसन भविष्यदतो निधना दनुमितमन्तरा त्वयि विभाति मृषैकरसे अत उपमीयते द्रविणजातिविकल्पपथैर् वितथ मनो विलास मृतमित्य वयन्त्य बुधाः स यद जया त्वजा मनुषयीत गुणांश्च दुषन् भजति सरूपताम् तदनु मृत्युमपेत भगः त्वमुत जहासितामहिरिव त्वच मात्त भगो महसि महीयश्रेष्ठ गुणिते परिमेय भगः यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमो सताम् हृदि गतो स्मृतकण्ठमणिः असुत्रिपयोगिनामुभयतोऽप्यसुखम् भगवन् ननपगतान्तकादनधिरूढपदाद्भवतः त्वदवगमीन वेत्ति भवदुत्थ शुभाशुभयोर् गुणविगुणान् वयांस्तर्हि देहभृतान्त्य गिरः अनुयुगमन्वहं सगुणगीत परम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः द्युपतय एव तेन ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनितया ननु सावरणाः ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयस् त्वयि हि फलन्त्य तन्निरसनेन भवन्निधनाः श्रीभगवानुवाच इत्येतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् सनन्दनमथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् इत्यशेष समाम्नाय पुराणोपनिषद्रसः समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः त्वं चैतद् ब्रह्मदायाद श्रद्धयात्मानुशासनम् धारयंश्चरगां कामम् कामानां भर्जनं दृणाम् श्रीशुक उवाच एवं सर्षिणादिष्टं गृहीत्वा श्रद्धयात्मवान् पूर्णः सुतधरो राजन्नाह वीरव्रतो मुनिः नारद उवाच नमस्तस्मै भगवते कृष्णायामलकीर्तये यो धत्ते सर्वभूतानामभावायो सतीः कलाः इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ततो गादाश्रमं साक्षात् पितृद्वैपायनस्य मे सभाजितो भगवता कृतासनपरिग्रहः तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् इत्येतद्वर्णितं राजन् यन्न प्रश्नः कृतस्त्वया यथा ब्रह्मण्य निर्देश्ये निर्गुणेऽपि मनश्चरेत् योऽस्योत्प्रेक्षकादिमध्यनिधने यो व्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्तिताः यं सम्पद्य जहात्यजामनुषै सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे नारद नारायण संवादे वेदस्तुतिर्नाम सप्ताशीतितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुशासिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।